बालिका पठति
बालिकया पठ्यते
बालकाः पठन्ति
बालकैः पठ्यते
बालिकाः पठन्ति
बालिकाभिः पठ्यते
बालकौ पठतः
बालकाभ्यां पठ्यते
बालिके पठतः
बालिकाभ्यां पठ्यते
अहं पठामि
अहं पठ्यते
हरिप्रिय भगिनि एकवारं कृपया एकवारं कर्मणि प्रयोग तृतीयाविभक्ति क्रियापदं कथं
कर्तरिप्रयोगे कर्तृपदम् एकवचने द्विवचने बहुवचने भवितुं शक्यते क्रियापदरूपं समानमेव
कर्मणि प्रयोग
कर्मणि प्रयोगे पठ्यते गम्यते
एकवचनं सर्वत्र पच्यते एव अस्ति
तदेव इदानीं भवन्तः उत्तरं दत्तवन्तः किल
अहं न स्मरामि
न बालकः पठति बालकेन पठ्यते बालकाः पठन्ति बालकैः पठ्यते
ओके कर्मपदं सर्वमपि सर्वेण भेदं नास्ति
तत्र त्वं पठसि तत्र
त्वया पठ्यते
त्वया पठ्यते
त्वया पठ्यते ओके
आवां पठावः
आवाभ्यां पठ्यते
आवाभ्यां
पठ्यते वयं पठामः
अस्माभिः पठ्यते
युवां पठतः
युवाभ्यां पठ्यते
यूयं पठसि क्षम्यतां यूयं पठत
युष्माभिः
पठ्यते अवगतं वा छात्राः लिखन्ति
छात्राभिः
पठ्यते
लिख्यते
छात्रैः लिख्यते
छात्रैः लिख्यते विद्यार्थिन्यः गायन्ति
विद्यार्थिनीभिः गीयते
सम्यक् धनिकाः यच्छन्ति
धनिकाभिः यच्छते
धनिकाः
मास्कुलिन् इस् इट्
धनिकः धनिकाः
धनिकैः
धनिकैः
यच्छते.
सेवकाः वहन्ति
सेवकैः
वहते
वहत्ये
वह्यते
उह्यते शुक्रं. तदनन्तरं धनिकैः धनिकाः यच्छन्ति तत्र यच्यते इति नास्ति दाधातुः किल तदा किं दीयते सेवकाः वहन्ति तत्र
सेवकाः सेवकैः ऊह्यते
सम्यक् सम्यक् ऊह्यते एक्सलेण्ट्. मातरः कुर्वन्ति मातृभिः क्रियते सम्यक्. भक्ताः नमन्ति
भक्तैः नमते
नम्यते
नमते वा
नम्यते
नम्यते यकारः यकारः आवश्यकः. नर्तकी धरति
नर्तक्या
नर्तक्या
धर्यते
ध्रियते
ध्रियते
भ्राता शृणोति भ्राता शृणोति
भ्रातः पुल्लिङ्गशब्दः
भ्राता
पितृशब्दः
पितृभ्यां
पितृभ्यैः सरे
भ्रातृ तत्र बहुवचनं
पितृभिः
यदा बहुवचनं
भ्रातृभिः
भ्रातृभिः
भ्रातृभिः किं कर्म
शृणोति शृणोति सः
श्रूयते
श्रूयते सम्यक. ताः ताः गृह्णन्ति
तयाभिः
तया नास्ति तया ताभ्यां
ताभिः
ताभिः
ताभिः गृह्यते
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 ग्रह ग्रह इति धातु किल अहं पृच्छामि
मया
मया पृच्छ्यते
पृच्छ्यते
त्वम् इच्छसि
तया
ईक्ष्यसे ईक्ष्यते
त्वया किम् उक्तवती
ईक्ष्यते
ईक्ष्यते सिङ्ग् नो इच्छसि अत्र इच्छा
किमर्थम् इच्छा किमर्थम् ईक्षा किमर्थम्
ईक्षणम् इस् सीङ्ग् सीङ्ग् सम्थिङ्ग् इच्छा इस् युवर् डिसैर् फर् सम्थिङ्ग्
इच्छ्यते
इच्छ्यते
इष्य धातु
इष्यते इष्यते
इष्यते
इष्यते सम्यक्. वयं स्मरामः
अस्माभिः स्मर्यते
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 क्रेता क्रीणाति बयर् क्रेता इत्युक्ते बयर्
क्रेतया
हा हा तद् ऋकारान्तशब्दः लैक् भ्रातृ पितृ लैक् देट्
क्रेताभिः क्रेताभिः
न ऋकारान्तशब्दः कथम् आगतं भ्रातृशब्दं कृतवन्तः किल
पितरा पितरामेव नो पितरा पितृशब्दावेव
तथा एव करणीयं
पिता पितरौ पितरः पितरं पितरौ पितरान् पितृन् पितृन् ओके पित्रा पितृभ्यां पितृभिः क्रेतुभिः क्रेति
तत्र बहुवचनम् इत्युक्ते क्रेतृभिः एकवचने एकवचने
क्रेता
क्रेत्रा
क्रेत्रा
क्रेत्रा वैसि
पितृशब्दं कथम् आयाति एकवचने
पित्रा
पिता पितरौ पितरः
पितरं पितरौ
पितरं पितरौ पितरा पितृन्
पितृन् पित्रा पितृभ्या पितृभिः किल एवमेव अत्रापि क्रेत्रा क्रेतृभ्यां
क्रेतृभिः
क्रेतृभिः
तदेव क्रीणाति तस्य कर्मणि प्रयोगः
क्रियते
क्रीष्यते
क्रियते
क्रियते
एव तत्र धातुं पश्यतु क्री इति धातुः अतः तस्य अनन्तरं यकारः आगच्छति तथा एव सर्वे जिघ्रन्ति तत्र धातु
पुंलिङ्गम्
सर्वे पुल्लिङ्गमेव
ओके
सर्वे इस् इट्
सर्वाभ्यां सर्वेभ्यां
सर्वैः
सर्वेण सर्वाभ्यां
जिघ्रन्ति जिघ्रन्ति इत्यत्र धातुः कः
जिग्गा जिग् धातु वा
घ्रा 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 इति धातुः तदा तस्य कर्मणि रूपं कथं भवति
ग्रीयते
घ्रा घ्रा
ग्रा ग्रा
ग्राह्यते
घ्रायते
ग्रायते
किमर्थं हकारः हकारः न आवश्यकः तत्र घ्रा इति धातुः यु ओन्लि हेव् टु एड् य फर् कर्मणि प्रयोग घ्र सर्वैः घ्रायते जिघ्रन्ति इत्युक्ते स्मेल्लिङ्ग् घ्राणम् भवत्यः वदन्ति
भवत्या
भवत्यः लिङ्गं किम्
इकारान्त स्त्रीलिङ्गं वा
भवतीभिः
भवतीभिः वदन्ति वदति इत्युक्ते वदन्ति इति वदन्ति इत्यस्य अत्र
वाक् दातु
वच् वद् तस्य उद्यते इति उद्यते वद धातु वच् धातु अस्ति चेत् वक्ति इति रूपं भवति अत्र वदन्ति इति वदति वदतः वदन्ति इति रूपाणि किल अतः उद्यते भवती जानाति जानाति तस्य धातुः कः ज्ञा धातुः तदा किं करणीयं ज्ञायते सम्यक् भवती शब्दस्य कर्मणि प्रयोगः कथं भवति भवत्या ज्ञायते अवगतं वा तदनन्तरं कर्मकराः नयन्ति नयन्ति तस्य धातुः कः नीयते सम्यक् अर्चकाः वन्दन्ते आत्मनेपदी आगतम्
अर्चकैः
वन्द्यते के ईक्षन्ते फणिभगिनी इदानीम् ईक्षणम् आगतम् के ईक्षन्ते कैः ईक्ष्यते काः गच्छन्ति स्त्रीलिङ्गशब्दः काः काभिः
गम्यते
अवगतं वा इदानीं सा शब्दं शृणोति तदा शब्दः श्रूयते माता पाकं करोति
मात्रा पाकः पाकं नपुंसकलिङ्गम्
न न पाकः
ओके माता पाकः पच्यते
माता वा माता वा
मात्रा किमुपि पच्यते
करोति पाकं करोति
करोति कुर्यते
क्रियते
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 तत्र कृञ् धातुः अस्ति तस्य परिवर्तनं भूत्वा क्री इति भवति क्रियते इति देवः भक्तं रक्षति
देवेन भक्तः लक्ष्यते
सम्यक् भक्तः देवं नमति
भक्तेन देवः नम्यते
सम्यक् भक्ता हा हा वदतु महोदय
कृपया
भक्तः देवं नमति
ओके भक्तेन देवः नम्यते नमते
सम्यक् नम्यते एव नम्यते तत्र यकारः कर्मणि प्रयोगे यकारः कम्पल्सरि अवगतं वा नमते इति वदति चेत् आत्मनेपदिरूपं भवति किन्तु तत् कर्मणि प्रयोगं नास्ति
ओके वेट् हरिप्रिया भगिनी ऐ जस्ट् गाट् लास्ट् So before we were doing karmani prayoga, no. Just
na tadapi karmani prayoga eva. Tatra कर्मपदम् उपयुज्य न कृतवन्तः केवलं कर्तृपदं क्रियापदम् उपयुज्य कृतवन्तः इदानीं कर्मपदम् अपि योजयित्वा कुर्मः
सम्यक् अवगतम्
भक्ता विष्णुं ध्यायति
भक्तेन
न भक्ता
एकवचन
बहुवचनमेव किं वदतु किम् उक्तवती कृपया हरिप्रिया
भक्ताः स्त्रीलिङ्गे पुंलिङ्गे भक्तः भक्तौ भक्ताः अत्र भक्ता इति स्त्रीलिङ्ग एकवचनपदं दत्तमस्ति भक्ता विष्णुं ध्यायति
भक्तया विष्णुः ध्यायते
सम्यक् ध्यायते स्वामी सेवकम् आदिशति
अदि स्वामिन् शब्दः अस्ति स्वामी एकवचनमेव
स्वामी स्वामिनौ स्वामिनः इति रूपाणि
तृतीय एकवचनं स्वामिना ऐ थिङ्क्
ऐ थिङ्क् नास्ति तदेव
किमस्ति
स्वामिना
स्वामिना स्वामिना सेवकः आदिश्यते सम्यक् स्वामिना सेवकः आदिश्यते अग्रे सेवकः स्वामिनीं वदति स्वामिनी इति स्त्रीलिङ्गशब्दः तदा
सेवकेन
स्वामिनीः इति किमर्थं तत्र एकवचनम् अस्ति किल
स्वामिन्यः नदी नद्यौ नद्यः स्वामिन्यः
तत्र स्वामिनीं सः वदति सेवकः स्वामिनीं वदति अतः सेवकेन स्वामिनी वदति तस्य रूपं किं भवति कर्मणि प्रयोग
उच्यते
उद्यते
can you I'm sorry you're going too fast a little bit प्रथम वाक्यं किम् अस्ति कः अस्ति
सेवकः
सेवकः
सेवकः इति पुंलिङ्गशब्दः अकारान्त पुंलिङ्ग प्रथमाविभक्ति एकवचनं स्वामिनीं द्वितीया विभक्तिः स्वामिनी स्वामिन्यौ स्वामिन्यः इति रूपाणि स्त्रीलिङ्गशब्दः सेवकः स्वामिनीं वदति
सेवकः सेवकेन सेवकेन स्वामिनी प्रथमाविभक्ति बहुवचनम् अस्ति वा
न प्रथमाविभक्त्यां रूपाणि कथं भवन्ति स्वामिनी स्वामिनौ स्वामिन्यौ स्वामिन्यः नदी नद्यौ नद्यः इव अत्र स्वामिनीं नदीम् इति दत्तमस्ति
So how, what does that change into then?
कर्मपदं किल स्वामिनीम् इति कर्मपदमस्ति द्वितीया विभक्तिः
So Prathama, so it changes to Prathama Vibhakti, right?
Sorry, I forgot. Tada kim bhavati?
Swamini.
Sevakena, Swamini. Vadati, tasya?
Udyate.
Udyate. Avagatamba?
Avagatamba.
Sevakena, Swamini, udyate.
Swamini.
Okay.
Sa malam rachayati.
Daya. Mala. 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 Mala.
Mala. Mala. Mala. Mala. And malam is, what was the second word?
Malam. Tad dvitiya vibhakti padam asti, ekavachane.
Ekavaram vakyam.
Shrunotu, sa. Bhavati likhatu, aham shanaihi shanaihi.
Yeah, okay.
Sa mala rachayati.
Is taya malam becomes akaranta strilinga mala. 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 Dat kriya pada
dhatu kimasti rach dhatu
rachyate
ratade va rachyate
rachyate
avagatam va
avagatam aham likha aham vakyam likhami because I forget किन्तु अहं न स्मरामि किं वाक्यम् उक्तवती भवती.
इदानीं कर्मणि प्रयोगे बहुवचनं स्वीकुर्मः. इतः पर्यन्तम् एकवचनम् एव स्वीकृतवन्तः किल. कर्मपदस्य एकवचनमासीत्. इदानीं कर्मपदस्य बहुवचनं स्वीकृत्य कुर्मः. बालेन ग्रन्थाः पठ्यन्ते.
बालेन
ग्रन्थाः पठ्यन्ते.
सो बालः ग्रन्थं
पठति. ग्रन्थान् पठन्ते.
ग्रन्थान्.
ओ ग्रन्थान्. या
बालेन शब्दाः उच्चार्यन्ते.
बालः
शब्दः इस् इट् शब्दान्
शब्दान् शब्दान्
शब्दान् किम्
उच्चार्यन्ते इत्यस्ति.
बालः
शब्दान्
शब्दान्
Bhagini, it cannot be Shabdan, it has to be Shabdaha.
That's what I was thinking. So,
Balena Shabdaha.
No, but is she not changing it?
No. Hold on one second. The initial, she is giving you in Karmani and we are changing it to Kartari. So, in Karmani, it has to be Ekavachanam, Karmapadam.
No, but she gave us the Karmani Praga. She said, Balena.
Mm-hmm.
Shabdan
Shabdaha
Uchara.
Shabdaha. It should be Shabdaha.
So that's why we have to change. Right? Okay. She gave Balena Shabdan Uchharayanti.
No. Balena Shabdaha. I said Shabdaha. Oh. Balena Shabdaha Uchharayanti.
Balaha Shabdan
Uchharati. Uchharati.
Samyak.
So, Tena. So now we're changing it back to Kartari. Yes?
Yes.
From Karmani, we're changing it back to Karmani, we're changing it back to Kartari. Yes? Okay. Okay. Just to make sure.
Avagatam va?
Avagatam bhagini.
Tena kathaha likhyante.
कथा
इति स्त्रीलिङ्गः अत्र कथाः इति बहुवचनमस्ति तदा किं करणीयं
समान् कथान्
कथान् इति आगच्छति वा स्त्रीलिङ्गशब्दः सः कथाः
लिखति
तदेव छात्रेण प्रश्नाः पृच्छ्यन्ते
पृच्छति छात्रः प्रश्नं पृच्छति
प्रश्नाः बहुवचनमस्ति
प्रश्न आकारान्त स्त्रीलिङ्गं वा
प्रश्नः एव छात्रेण पुनः वदामि छात्रेण प्रश्नाः पृच्छ्यन्ते कर्तृपदम्
पृच्छति
कर्तृपदं छात्रः इदानीं किम् अभवत् छात्रः प्रश्नान्
पृच्छति
पृच्छति चित्रकारेण चित्राणि लिख्यन्ते
चित्रकारः
लिखति तया मालाः रच्यन्ते
मालाः
इति बहुवचनमस्ति
माला
अमालाः एव
So have you understood the difference between this prayoga and the first one we did? Balakah pathati, balakah pathanti. There, in first exercise, what happened was, balakah pathati, balakah pathanti. Tatra, there was no karma pada. So for all of them, we took as पठ्यते क्रियते एव अवगतं वा वेङ्कटराव् महोदय हेव् यु अण्डर्स्टुड्
भावे प्रयोग
Don't talk about bhave prayoga. You just understand how it is done. That's all.
So can I just ask a question? So just to get it clear. So first time we just you gave us a regular kartari sentence without a karma padam.
Yes.
can we change it to karma prayoga, karmani prayoga?
Yes.
Then next, we took the again a normal kartari sentence with a karma padam, then change it to karmani prayoga.
Yes. Now what, in the end, what we did is with the karma pada.
Yes.
When the karma pada is there, you have to pay attention to whether it is in ekavachanam or vivachanam or bahuvachanam. Avagatam va?
And then change it into a kartri sentence.
Mahataya, avagatam va?
Avagatam bhagini.
Then shall we go to the other lakaras, or shall we do more exercises in this?
Other things we can do, I think.
Are you sure?
Pani bhagini, are you ready?
I'm the lagger here, so I don't want to hold you guys up. I mean, can we just do a couple of more, just one more set?
Yes, we can do.
Just one more set, so I can write. I mean, I know when aham avagatam.
See, you do one thing, Pani Bhagini, you do one thing.
Yeah.
What you have to do is, first write kartari prayoga to karmani prayoga without karma pada.
Okay.
Like that you write, and then you write these sentences. Balakaha pathati, balakaha pathanti, balika pathati, balakau pathataha, all those. Aham pathami, vayam pathamaha, tat sarvam. Tvam pathasi, yuyam pathatha, tat sarvam likhitva. Tadanantaram, you take exercises in karmani prayoga with karma pada. Karma pada in ekavachana. You first take ekavachana, then take dvivachana, then bahuvachana. Like that, if you systematically do, you will understand this very well.
Okay, I can do that.
Beginning, okay, so the way you described this teach yourself Sanskrit, second step, has they go step by step like that. Very nicely done.
Where is that?
I posted it on the WhatsApp. If you buy it from India, it is about 7,000 rupees. It includes Teach Yourself Sanskrit, all the series of books, including shipping charges.
So this Kutumba Shastri books, huh?
Yes.
Okay.
They are in Sanskrit. No Hindi.
Oh, okay.
He posted one more time, because I don't know if I saw it. Maybe I saw it, I don't know.
Okay. What is the, which part has this?
Dvitiya Diksha, Dvitiya Bhaga.
Okay. I to purchase, but I didn't get time to have a look at it, actually.
Yeah, they go very systematically, very nicely done.
Now you have understood, no? How it is done?
Yes.
Thank you.
There is no confusion now.
Yes.
Okay. One more example, one more exercise we will do, then go to the other lakara. Kavina kritihi virachyante.
Kavina kim kritihi.
So kavi.
Kavihi.
Kavihi.
Kritihi, you said, huh?
Nadi saptaha.
Krityaha.
Nadihi, akritihi.
Kriti?
No, it's kritihi. Dvitiya vibhakti bahuvachanam, na?
Kriti, nadi shabdavata.
So it's
it has to be Kriti.
Kritim. No, Kritim is Bahuvat, is the Ekavachan. Kritihi. Kriti is Eka, is a. Did you say Kritihi or Kriti?
So Kritiaha. Kritiaha, right?
Kritihi, Ekanamisham.
No, because it isn't. This should be the. Oh my god.
Kritihi, there is Kritiaha. Pullinga, I mean, Srilinga, Bahuvachanam.
Kritihi, Kritihi, it's just it. Kritihi.
Kritim.
Ikaranta, Mati Shabdavat. Tada?
Mati Shabdavat.
Kritihi, Mati, Matayaha. Mati.
Krutim. Kavihi krutim. Kriyapadam kim?
Krutihi eva. Virachyante kriyapadam.
But does it now kavina krutihi virachyate? What did you say? I'm sorry.
Kavina krutihi virachyante is the sentence given there.
Virachyate, and that is in Karmani Prayoga. So then you change that to kavina is kavihi. Krutin, shouldn't it be krutin, because this is krutihi is is bahuvachanam, is eka, is
prathama
vibhakti eka vachanam, so shouldn't it be changed to dvitiya vibhakti bahuvachanam? And isn't that, shouldn't it be krutihi?
See, it becomes kritim, kriti, kritihi.
Yeah, but the vachanam need not change, right? It's still eka vachanam, but dvi...
No, because the sentence changes into...
No, that...
Kattari.
This becomes a...
Kattari prayoga.
Kattari prayoga, that's the object becomes... with Dvitiya Vibhakti, right?
Dvitiya Vibhakti, but the Vachanam will be the same. It is still Eka Vachanam only. It will be Kritim.
No, but it's Kriti. It's Bahuvachanam. It's Kriti.
Kriti. Bahuvachanam is there.
But
if it is...
The sentence you gave us was Kavina Kritihi. Virachyate.
Kritihi. Dirghamasti.
Okay.
But that shouldn't be there, Bhagini. That should be in Krutayaha, because in Karmani Prayoga, you have to have Ekavachanam.
No, Mahodaya. Shunotu. Mati Shabdaha. Mati Shabdavat Kriti Shabdaha. Tada kim bhavati matihi mati matayaha matim mati matihi iti rupani.
Okay, I got that, but I'm wondering in Karmani Prayoga that it is in Prathama Vibhakti, correct?
Karmani Prayoga Karma
Matayaha Kritayaha
Kritayaha should be there. That's
yes, aam.
Then it becomes matihi in kattari.
Okay, now you lost me. Go say it one more time with you. I thought I got it. So kavina is
tatra karma padasya कृतेः इति दत्तमस्ति किल, तत् कृतयः इति भवितव्यम् इति ते वदन्ति. एवमेव किल?
बिकास् कृतयः इस् दट्
कृतयः इति प्रथमा विभक्ति बहुवचनम् इन् कर्मणि प्रयोगे कर्मपदं शुड् बि इन् प्रथमा विभक्ति. सो कवयः कविना कृतयः रच्यन् रच्यन्ते.
सो कविना इस् तृतीया विभक्ति,
तृतीया विभक्ति
रैट्, एण्ड् देन् द कर्मणि प्रयोग शुड् बि इन् प्रथमा विभक्ति एकवचनं.
Doesn't mean prathama vibhakti, any vachana.
Yeah, ekavachana or whatever. So, prathama vibhakti of krutihi is?
Krutihi, kruti, krutayaha.
Oh, I see. Okay, okay.
Now you get it?
Oh, I see. Because it was conjugate, okay. I get it. It's not nadina. Yeah, okay, I got it.
छात्रैः नियमान् पाल्यते.
छात्राः नियमानि पालयति. पालयति
पालयन्ति छात्राः. Now you have to change it.
No,
नियमानि पालयन्ति.
नियमाः महोदय, तत्र नियमानि इति नास्ति, नियमः इति.
ओ, इट्स् अ पुल्लिङ्गशब्दम्. ओके.
तत्रापि छात्रैः नियमान् नियमाः छात्रैः नियमाः पाल्यते इति भवितव्यम्.
ओके,
वाय् इस् नियमाः?
नियमः
इट् शुड् बि प्रथमा विभक्ति, रैट्? सोरि, इट् शुड् बि द्वितीया. It should not be a niyamam, dvithiya vibhakti, no?
No, no, atra karmani prayoge chhatraihi niyamaha palyate.
Right, and then kartari prayoga?
Chhatraha?
Niyamam or niyamani palayanti?
Niyaman,
okay. Palayanti.
अवगतं वा? इदानीं तव तु प्रत्ययः अस्ति किल, पठितवान्, गतवान्. तस्य कर्मणि प्रयोगः, तस्य अभ्यासं कुर्मः. बालः ग्रन्थं पठितवान्, तदा किं भवति? बालेन ग्रन्थं पठितवान्.
बालेन ग्रन्थः पठितः,
तदेव.
पठित किं किं कर्तक क्रियपदं किम्?
पठितवान्.
सो बालेन ग्रन्थः
एव एकवचनमेव.
किमर्थम्?
बालः ग्रन्थं पठितवान्, ग्रन्थम् एव अस्ति किल.
ओ, बालं, ओके, ग्रन्थं पठितवान्. बालेन ग्रन्थाः
ग्रन्थः
ग्रन्थः
एकवचनमेव पठितः बालेन ग्रन्थः पठितः सो हियर् वाट् यु आर् डूङ्ग् इस् फ्रम् तव तु प्रत्यय यु आर् कन्वर्टिङ्ग् इट् इन् टु त प्रत्यय सो ईसि नो छात्रः
छात्रः
विद्यालयं गतवान्
छात्रेण
विद्यालयः
गतः
विद्यार्थी प्रश्नं पृष्टवान्
विद्यार्थिना
पृष्टः सा कथाम् उक्तवती
तया कथां किं
कथा
उक्ता
कथा उक्ता कर्मपदं कथा इत्यस्ति किल स्त्रीलिङ्गमस्ति अतः उक्ता अवगतं वा
उक्तवती यु सेड् रैट्
वट् प्रत्यया इस् दिस्
ता प्रत्यया
ता प्रत्यया
द हाफ् ता एंड द ता रैट् द उक्ता
यस् यस् यस्
Say that again.
Agre.
Oh, half ta.
Half ta and ta.
Pita putram bodhitavan.
Pitra.
Pitra.
Putraha. बोधिता
बोधितः
बोधितः
पुत्रः इत्यस्ति किल
पुंलिङ्गम् इस् तः स्त्रीलिङ्गम् इस्
नपुंसकलिङ्गम् इस्
तं सा वदतु महोदय
किम् अर्थं कः अर्थं
The
book has been read by the boy in the English version.
Sa syutam neetavati.
Taya sutaha neetaha.
Sutaha.
रामः तत्त्वं न रामः तत्त्वं ज्ञातवान्
रामेण तत्त्वं कीदृशं पदं
नपुंसकलिङ्गं तत्त्वं
तत्त्वं ज्ञाता
वैद्यः औषधं दत्तवान्
वैद्येन औषधं
दत्तं
रोगी औषधं पीतवान्
रोगिणा
औषधं पीतं सः विषयं smritavan.
Tena.
Hmm.
Yashayam. Kim kim kartupadam kartupadam karm ay kriyapadam
smritavan.
Smrita.
Smritavan.
Smritaah.
Smritam.
Oh yeah.
Vishayam vishayaha. Vishayaha.
Smritaha.
Tena vishayaha smritaha. Sevika malam rachitavati.
Sevikaya mala rachita.
Rachita. Kimartham rachitam? Pani mahogaye.
Aham malam. Iti malam iti
mala strilinga shabdam.
Mala
strilinga.
Mala. What is the country? Yes.
Sevika malam rachita vati.
So rachitam.
Rachita.
Mala rachita.
Oh, Rachita, because Mala is strilingam, so Rachita should be strilingam.
Sevikaya Mala Rachita. Grihini Dhenum Pujitavati.
Grihinya Dhenuhu Pujitaha.
Tatra dhenu dhenuhu strilinga shabdam.
Pujita, pujita.
Pujita. Dhenuhu iti strilinga shabdam.
Strilinga shabdam, yeah.
Karmakaraha vriksham arudhavan.
Karmakaraha vriksham.
Arudhaha. Balakah bhittim sprishtavan.
What?
Kaha artham bhittim?
Bhittim iti te wall.
Oh, bhittihi wall. Oh, okay. Balakena bhittihi sprishtaha.
Tatra bhittihi iti asti kintu tata strilinga shabda.
Oh, sprishta.
Balakena bhittihi prishta. Marjaraha. Vadatu mahoday.
So strilingam is sta tha. Napumsaklingam is tam. And pumlingam is taha. Right? Okay. Taha.
Marjaraha mushakam grinhati.
Marjarena mushakaha grinhaha. No, that's
not. Grinhataha.
Kana?
Vitaha.
Grinhaha. Samyakiva.
What did he say?
Jana.
Grinhataha, is it?
Grinhaha. Grinhataha.
Mushakaha grinhataha.
Grihitaha. Kshamyatam. Tatra marjaraha mushaka marjarena. Mushakaha grihitaha.
Grihitaha.
Janaha. Vadatu mahoday.
Sorry, the question was marjaraha mushakam grihitavan.
Grinhati ityasti. Tasya karmani prayogaha. Ityukte prathamam you have to do it into tavatu. grahitavan evam.
Sorry, I guess the confusion was the marjaraha.
मूषकं गृह्णाति इति लट्लकारप्रयोगः, तस्य प्रथमं तव तु प्रत्यये कृत्वा तदनन्तरं तस्य कर्मणि करणीयम्. अवगतं वा? मार्जारः मूषकं गृह्णाति इति लट्लकारप्रयोगः, तस्य तव तु प्रयोगः कथं भवति? गृहीतवान् इदानीं तस्य कर्मणि प्रयोगः.
देन् मार्जारेण मूषकः गृहीतः. ट्रान्स्फार्म् टु तव तु एण्ड् देन्
आम् अवगतं वा? If it, if you directly do latlakarasya karmani prayoga, then how will it be? Marjaraha mushakam grinhati. Tasya karmani prayoga katham bhavati?
Jena.
Marjaraha mushakaha.
Mushakaha.
Grihitaha. Grihitaha.
तत्र गृहीतः इति न महोदय, गृहीतः इति त प्रत्ययः किल. अहं पृच्छामि, फस्ट् एक्ससैज् यू डिड् न
गृहीतवान्.
फस्ट् एक्ससैज् वी डिड् नो
रैट्
लट्लकारस्य कर्मणि प्रयोग. लिखति लिख्यते. मार्जारः मूषकं
मार्जारेण मूषकः गृह्यते ग्राह्यते
गृह्यते
गृह्यते.
अवगतं वा?
जनाः
धर्मं पालयन्ति. यु डु तव तु स प्रत्यय, देन् गो बेक् टु लट्लकारस्य कर्मणि प्रयोग.
जनाः धर्मं पालयति इस् लट्लकार.
पालयन्ति, पालयन्ति किल जनाः बहुवचनम्.
सो देन् गो टु जनैः धर्मः. धर्मः पुंलिङ्गमा वा? जनैः धर्मः फाल्यते.
तत्र
तवतु
पालितवान्
पालितवन्तः.
जनैः धर्मः
पालिता.
नो 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 इन् कर्मणि. ओ कर्मणि, नौ इट् इस् कर्मणि. इन् कर्मणि गो वित् कर्मपदं. सो धर्मम् इस् सिङ्गुलर्, सो इट्स् नाट् बि पालितवन्तः, इट् इस् पालितवान् एव.
No, no, Mahatma.
But not yet.
Oh, you are doing, oh, yeah. No,
not yet, right? Next step.
Next step.
What did I tell you? You convert this into Tavatu Pratyaya first.
Which we just did.
Tavatu sentence. That means simply past tense only.
Okay. So, which is Janaha, Janaha, Dharmam, पालितवन्तः. धर्मं पालितवन्तः. जस्ट् सिम्पल् सिम्पल्
सिम्पल् कन्वर्षन् टु तव तु, दट् इस् पास्ट् टेन्स् ओन्लि.
एण्ड् देन् यु सेड् डु कर्मणि, देन् डु कर्मणि, रैट्? विच् वुड् बि जनैः धर्मः एण्ड् दिस् इस्
पालितः. सी वेन् यु डु फ्रम् तव तु टु ल प्रत्यय वाट् विल् कम् देर्
So ta pratyaya comes directly from tavatu.
Yes,
tavatu karmani tavatu pratyaya. Right? No.
Janaihi dharmah palitah. Now you take this janah dharmam palayanti, convert it into karmani prayoga. That will be lat lakarasya prayoga.
I see.
जनाः धर्मं पालयन्ति तस्य कर्मणि प्रयोगः
जनैः अगेन्
जनैः धर्मः पाल्यते
अवगतं वा
Hold on, I kind of get it. Let me just walk through it once, okay?
Yes. You have to do it again and again. Then you will
I'll follow this process when I do my homework. So first, we took a sentence, simple sentence, janah dharmam palayanti. Simple skarpari prayoga lat lakara sentence.
Yes.
Then we changed it to tavatu pratyaya, past tense, right? Which was janah.
You make three columns. First column is lat lakara.
Okay, let me write this like a lat lakara, okay?
Second column is tavatu pratyaya.
Tavatu is janaha dharmam palitavati.
Palitavantaha.
Because it's fumling. And then we change it to a karmani ta pratyaya. Ta pratyaya, right? Which is janaihi dharmaha.
Palita.
Wait,
now you convert the latlakara sentence into karmani.
And the latlakara went to karmani.
What will come there?
Janaihi dharmaha
palyate. Palyate.
Dharmaha palyate. Okay. Yeah, okay, so in the top, so top latyaya, is the karmani version of the past tense?
Yep.
Can I say that?
Yeah.
Okay, karmani version of the past tense.
Avagatam va?
Bhagini, thank you so much. This is so helpful.
Agre gachhamah va? We will do some more sentences and stop here. Next class, we will take up other lakaras. Because you need to digest this well. Shishuhu shiram pibati.
So first.
Pibati you said, right?
So, choice to a tavatu pratyaya, we want to change it?
No.
Tavatu. Yes, you have to do it to tavatu.
The whole process?
Yep.
Pitavan. Shishuhu
Pitavan. Shishu. Pitavan. Now, do the karmani for tavatu.
Shishuna.
What is it?
Shiram. Shiram iti
napumsakalinga
shabdameva.
Shiram.
Pitam.
Pitum.
Pitam.
Pitam.
Now for now do the karmani of latlakara.
Karmani of latlakara. Shishuna.
Shiram.
Piyate. Shishuna kshiram piyate. Sha chandram pashyati.
Chandram drushtitavati.
दृष्टवती सम्यक्
दृष्टवती
विद्यामहोदय
द दृष्टवती इस्
तवतु
no that I got is the small e or the large
drishtavati dirgham asti
dirgham okay
hmm
sorry oh yeah like everything else okay.
hmm hmm hmm
ya chandram
chandraha so, is it
hmm
taya
chandraha
hmm
drishta
no drishta
दृष्टः चन्द्रः
चन्द्रः दृष्टः
चन्द्रः दृष्टः तया चन्द्रः दृष्टः कर्मणि आफ् लट्लकार
तया
चन्द्रः
दृश्यते
दृश्यते
छात्रः पाषाणं क्षिपति
छात्रः पाषाणं
देयर आर दे ब्रेकिंग रॉक्स
नॉट ब्रेकिंग थ्रोइंग क्षिपति क्षेपणं थ्रोइंग
सो छात्रः पाषाणं क्षिपितवान्
क्षिपित इति नास्ति क्षिप् धातुः
क्षिप्तवान्
क्षिप्तवान्
नौ कर्मणि प्रयोग रैट् छात्रेण पाषाण नपुंसकलिङ्गं वा
पाषाणः
ओके क्षात्रेण पाषाणः क्षिप्तः
क्षिप्तः नौ कर्मणि प्रयोग आफ् लट्लकार सेण्टेन्स्
क्षात्रेण पाषाणः क्षिप्यते
नटः हारान् धरति हारान् धरति
नटः हारान् धरितवान्
धरितवान् इति नास्ति धृ इति धातुः तदा
धृतवान्
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 कर्मणि
कर्मणि
नटः
नटः नटः नटेन हारः
नटेन हाराः
धृताः
धृताः सम्यक्
नटेन हाराः
धृत्यते
धृत्यते
न न न धृ धातुः अस्ति किल तस्य धार्यते इति भवति बालः अक्षराणि लिखति
बालः अक्षराणि लिखितवान् बालेन
अक्षराणि अक्षराणि लिखितं
अक्षराणि अक्षराणि
लिखिता
लिखितानि
लिखितानि अक्षराणि नपुंसकलिङ्गमस्ति अतः पुनः बहुवचनमपि अतः अक्षराणि लिखितानि अक्षरम् इत्युक्ते लिखितम् इति आगच्छति इदानीं लट् लकारस्य कर्म कर्माणि प्रयोग
बलेन
बालेन
अक्षराणि
लिख्यन्ते
अवगतं वा हा भवती वदतु अहं न जानामि
लिख्यन्ते
लिख्यन्ते वा
लिख्यते
लिख्यते वा लिख्यन्ते वा
ऐ थिङ्क् इट् लिख्यन्ते
अक्षरं लिख्यते अक्षरे लिख्येते अक्षराणि लिख्यन्ते
तदेव when there is no karma pada then you will take it as singular only
okay no
when there is karma pada follow the vachana
oh so then the previous sentence it was natena haraha dharyante then right not dharyate
aam yeah. tadeva
so it's
Like, just like in Kartari, you follow the Kartari, so it is Karta Shabdam, and you follow the Vachana with the verb. In Karmani, there is a Karma Padam, that is also in the Pradama Vibhakti, and the verb follows the Karmani.
Tateva. Avagatam.
Mahodhya, say one more time what you said. I was writing.
Kartari. Prayogam. In the name of the word is Karta. Karta is important. Karta is in whatever vachanam, the kriya is in the
Okay, got it.
Karmani, it is in the name
karmani
itself.
Karma is
most of. So if the karma padam is in what vachanam, the kriya padam goes.
Okay, got it. Makes sense. Got it.
Kreta vastuni kritavan.
But Kreta is isn't that Pratyaya Vibhakti?
No, Tava tu Pratyaya asti. Atra if it is Latlakara Prayoga. What will be the sentence?
Kreenati.
Kreta vastuni kreenati iti latlakara prayoga. Tasya tavatu pratyaya vakyamasti kreta vastuni kreetavan. Idani tasya karmani prayogameva karaniya. Already it is given. Only do the karmani prayoga.
So kreta is strilingam, akaranta strilingam.
Aha, strilingam nasti. Rukaranta shabdaha. We have already done, no?
Oh, yes.
Rukaranta.
Yes. Like pitra shabdaha?
Kretra.
Kretra.
Kretra. Vastuni.
क्रियन्ते
नो
न वस्तूनि इफ् इट् इस् स्यूतं क्रीतवान् इत्यस्ति तदा किं भवति
स्यूतः
क्रीतः
नपुंसकलिङ्ग
वस्तु मुनि नपुंसकलिङ्ग अतः
क्रीतानि
क्रेत्रा वस्तूनि क्रीतानि अवगतं वा
Oh no, I was saying for the karmani prayoga, is it not kriyante then?
Vastu we haven't ni? Gone there. We'll go there next. Okay. You want
to so the second wait. It was already in Tavatu Pratyaya, so I thought it was
okay, now say the karmani prayoga latlakara.
Say that sentence from the beginning, please. You said kreta vastuni kretavan.
Kretavan.
Kretavan. I'm sorry, kretavan. That's already in Tavatu Pratyaya. Right?
What is Dakta Pratyaya for that?
Would be
Kreetani.
Is it Dirgam that Kreetani?
Kreedhatuhu. Kreenati. Kreenati. Dirghameva. Vastuni Kreetani. If it is singular, vastum kreetam.
Kreetam.
अस्तु इदानीं समयः अभवत् अतः अग्रिमकक्ष्यायोग
विद्या भगिनी
वदतु प्रयोग
क्रेत्रा वस्तूनि क्रियन्ते
वस्तूनि क्रियन्ते
ओके धन्यवाद
अवगतं वा Actually, I didn't get time. Last week, I came to India, no? So, since then, it has been too busy. So, unable to type anything.
That's
so,
okay.
We'll do like
no, this. This was actually good. This was actually good.
Okay. We will do this like this for some more time. If possible, I'll give some exercises when I get time.
And also, we should revise the Sanaj and Shatrupatya also, Bhagini.
We will do. Next class, we will do Karmani Prayoga in Lang Lakara and Lot. Lang and Lot, we will
Lot
do. Bhavishyat Kala, it's not all that difficult. I think it is almost similar to Lat Lakara. So, that should not be a... time consuming thing. Only these things need attention.
And also they are saying usually if you know one because the other forms are rarely used, like Balakena Patham Pataha Pachyate is more commonly used with all is what they are the books are saying. The rest of the forms you know but they rarely come across.
अस्तु महोदय समापयामः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः
धन्यवादः भगिनी